अथ सप्तमोऽध्याय श्री भगवान उवाच मय्यासक्तमनः पार्थ योगं युञ्जन् मदाश्रय असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ज्ञानं तेऽहं सविज्ञान इदं वक्ष्याम्यशेषत यद्वात्वानेह भूयोऽन्यज्ञातव्यमवशिष्यते मनुष्याणां सहस्रेषु कश्चिद्यततिसिद्धये यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः भूमिरापो नलो वायो खं मनो बुद्धिरेव च अहङ्कार इति प्रकृतिरस्तथा अपरेयमितस्मन्यां प्रकृतिर्विद्धि मे परां जीवभूतां महाबाहो यदेवं धार्यते जगत् एतद्योनीनि भूतानि सर्वाणीत्युपधारय अहं कृष्णस्य जगत प्रभव प्रलयस्तथा मत्त परतरं नान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोतम् सूत्रे मणिगणा इव ह्रसोऽहमाप्सु कौन्तेय प्रभास्मि शशिसूययो प्रणव सर्वभेदेषु शब्दखे पौरुषंषु पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु बीजं मां सर्वभूतानां वेद्धि पार्थ सनातनम् बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहं बलं बलवतां चाहं कामरागविवर्जितां धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ये चैव सात्विका भावा राजसास्तामसाश्च ये मात एवेति तान् वेद्धि न त्वहं ते सुते मयि त्रिभिर्गुणमयैर्भावैरेभि सर्वमिदं जगत् मोहितं नाभिजानाति मामेभ्यः परमव्ययम् दैवी ह्येषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतान्तरन्ति ते न मां दुष्कृति नो मूढा प्रपद्यन्ते नराधमा मायापसितज्ञान आसुरं भवमाश्रिता चतुर्विधा भजन्ति मां जनाः सुकृतिनोर्गुणा आतो जिज्ञासुरथाति ज्ञानी च भरतर्षभ तेषां ज्ञाने दैत्ययुक्त एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थ महंस च मम प्रिय उदारा सर्व एवैते ज्ञानी त्वात्मैव मे मतम् आस्थित स हि युक्तात्मा मामेवानुत्तमाङ्गते बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते वासुदेव सर्वमिति स महात्मा सुदुर्लभ कामैस्तैस्तैहृतज्ञाना प्रपद्यन्तेऽन्यदेवता तं तं नियममास्थाय प्रकृत्या नियतः स्वया यो यो यां यां तनुं भक्त श्रद्धयार्चितुमेच्छति तस्य तस्याचरं श्रद्धां तामेव विदधाम्यहं सतया श्रद्धया युक्त स्तस्य आराधनमीहते लभते च ततो कामान् मयैव विहितानितान् अन्तवत्तु फलं तेषां पद्मवाच्यल्पमेधसां देवान् देवयजूयान्ति मद्भक्ता यान्ति मामपि अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबोधय परं भावमजानन्तो ममाव्ययमनुत्तमं नाहं प्रकाशः सर्वस्य योगमाया समावृत मूढोऽयं नाभिजानाति लोको मामजमव्ययम् वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां तु वेद न कश्चन इत्साद्वेषसमर्थेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां ते द्वन्द्वमोहनिर्मुक्ता भजन्ति मां दृढकृता जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ते ब्रह्मपद्विदो कृत्न मध्यात्मं कर्म चाखिलं साधिभूताधिदैवं मां साधियज्ञं च ये विदुः काले विषमान ते विदुर्युक्त चेतस ते विदुर्युक्त चेतस।
ओम तत्सत श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञान विज्ञान योगो नाम सप्तमः।